धृतौ व्रता आदित्या इषिरा आरेमत्कर्तरः सोरिभागाः शृण्वतो भो वरुणमित्रदेवा भद्रस्य विद्वाँ अवसेहुवेवः योजन्ते भाः प्रपतिर्योजमोजो योजन्वेषांसि सनुतर्युजोत अभिक्षत्तारो अभिचक्षमध्वमद्याचरो मृळयता परञ्च किमो नवः कृणवामापरेण किं सनेन वसव आप्येन योजन्ना मित्रावरुणादिते च स्वस्तिमिन्द्रामरुतो दधात हजेदे वाजोजमिदापयस्थते मृळतनाधमानाय मह्यम् मा भो रथो मध्यमवाढृते भोन्वायुष्मा वत्स्वापि शुश्रमिष्म प्रभ एको मिमय भोर्या गोजन्मा पितेव कितवं शशास आरे पाशा आरे अघानि देवा मामाधिपुत्रे विभग्रभीष्ट अर्वाञ्च अद्या भवता जजत्रा अभोहार्दिभजमानोऽव्यजेयम् त्राध्वन्नो देवा निजुरो मृगस्य त्राध्वम् कर्तादवपदो जजत्राः माहम् मघो न वरुणप्रियस्य भोरिदाम्न आविदंशो न मापेः मा राजो राजन् सुजमादवस्थाम् बृहद्वदेम विदधे सुवीराः